हामी सार्वजनिक सेवा प्रसारण रेडियो नेपालबाट बोलिरहेका छौं। अब सुन्नुहुनेछ संस्कृतमा समाचार, यसपछि 6 बजे सुन्नुहुनेछ नेपालीमा समाचार।
रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। नवनियुक्त प्रधानमन्त्री सुशीला कार्की ह्य पदभारम् गृहीतवती अस्ति। सीमाप्रसादवर्तिनी प्रधानमन्त्री कार्यालयस्य नूतन भवने पदभारम् गृह्णन्ति। प्रधानमन्त्री कार्की देशस्य अत्यावश्यकानां संस्थानां प्राविलेख विवरणानां विहितं दहन कार्यं दुःखपूर्णम् अस्ति इति चर्चयन्ति। राज्यस्य महत्वपूर्णः सम्पदः अग्निसात् कुर्वन्तो जनाः, अनुसन्धाय कठोरेण दण्डयिष्यन्ते इति प्रतिबद्धतां व्यक्तवती। जिनजीयूनां समूहस्य याचनायाः अनुसारेणैव आत्मना दायित्वं गृहीतम् इति स्पष्टयन्ती प्रधानमन्त्री कार्की। निर्धारिते समये एव निर्वाचनं विधाय नवीनाय नेतृत्वाय सत्तायाः हस्तान्तरणं करिष्यते इति प्रतिबद्धतां व्यक्तवती। प्रधानमन्त्री कार्की भाद्रमासस्य 23-24 च दिवसयोः विहिते आन्दोलने सम्भूता अग्निदाह भञ्जनादि घटना सुनियोजितरूपेण दीर्घतरं पूर्वकार्यं सम्पाद्य विहितमपि सम्भवति इति प्रावोचत्। असौ अगदत् सिंहप्रासादे, संसद भवने, सर्वोच्च न्यायालये, व्यापारिक केन्द्र प्रभृतिषु देशे विद्यमानासु सम्पत्सु सम्भूता अग्निदाहस्य घटना लज्जायुक्ता वर्तते। तत्पूर्वं प्रधानमन्त्री कार्की लैनचौरवर्तिनी हुतात्मस्मारकं प्राप्य माल्यार्पणं विहितवती। सर्वकारेण भाद्रमासस्य 23-24 च दिवसयोः आन्दोलनस्य क्रमे मृताः जनाः हुतात्मत्वेन घोषणा विहिता अस्ति। पूर्वेद्युः प्रधानमन्त्री सुशीला कार्की पदभारं गृह्णन्ति। भाद्रमासस्य 23-24 च दिवसयोः जेन्जी आन्दोलनस्य क्रमे मृतान् जनान् हुतात्मजनान् उद्घोषयितुं निर्णीतवती अस्ति इति मुख्य सचिवः एकनारायण अर्यालः असूचयत्। मुख्य सचिवः अर्यालः प्रत्येकं हुतात्मनां परिवाराय 10 लक्षाणि रूप्यकाणि सहयोगरूपेण प्रदातुं, आहतानां निःशुल्कं स्वास्थ्योपचारं विधातुं च निर्णीतमस्ति इति असूचयत्। एवमेव सर्वकारेण प्रदर्शनस्य क्रमे आहतानां जनानां उपचारेण सह किञ्चित् सहयोगं प्रदातुं, मृतकानां परिवारेभ्य काष्ठमण्डपवासस्य व्ययं निर्वोढुं, मृतकानां शवान् स्थानीयस्तरं यावत् प्रापयितुं च सर्वकारेणैव व्यवस्था विधास्यते इति निर्णीतमस्ति। मुख्य सचिवः अर्यालः प्रदर्शनस्य क्रमे प्रदर्शनकारी पक्षतः 69 दशबन्दिनः, 3 सुरक्षाकर्मिणश्च आहत्य 72 जनाः मृताः सन्तीति असूचयत्। मुख्य सचिवस्य अर्यालस्य अनुसारेण 34,100 प्रदर्शनकारिणः, 57 प्रहरिणश्च आहत्य 89,100 च जनाः विभिन्नेषु चिकित्सालयेषु उपचाररताः सन्ति। नेपालस्य अन्तरिम सर्वकारस्य प्रधानमन्त्री पदे सुशीला कार्कीणः नियुक्तिम् आलक्ष्य अमेरिकादेशेन स्वागतं विहितं वर्तते। काष्ठमण्डपवर्तिना अमेरिकादेशीयेन दूतावासेन ह्य विज्ञप्तिर्माध्यमेन गतसप्ताहस्य दुःखद घटनायाः पश्चात् उत्पन्नायाः समस्यायाः लोकतान्त्रिकरूपेण शान्तिपूर्ण समाधानं विहितम् अस्ति इति उक्त्वा राष्ट्रपतेः रामचन्द्र पौडेलस्य युवनेतॄणां च प्रशंसा विहिता अस्ति। अन्तरिम सर्वकारेण आगामी मासेषु नूतन निर्वाचनस्य कृते विधास्यमानानां पूर्वकार्याणां क्रमे नेपालेन सह सहकार्याय तत्परता भविष्यति इति ज्ञापितं वर्तते। तथैव चीनदेशेनापि नेपालस्य अन्तरिम सर्वकारस्य प्रधानमन्त्री पदे कार्कीणः नियुक्तिमालक्ष्य वर्धापन सन्देशः व्यक्तोऽस्ति। सहैव पारस्परिक सम्बन्धम् अतिरिक्तं सुदृढं विधातुं सहकार्यस्य प्रतिबद्धता च व्यक्ता अस्ति। चीन नेपालयोर मध्ये दीर्घकालतः मैत्रीपूर्ण सम्बन्ध विद्यमानोऽस्तीति चर्चयन् चीन देशस्य विदेश मन्त्रालयस्य प्रवक्ता पत्रकार सम्मेलने सर्वदा एव चीन देशेन नेपाली जनता स्वतन्त्र रूपेण प्रचितस्य विकासस्य मार्गस्य सम्मान विधास्यते उक्तवान् अस्तीति नेपालस्थितेन चीन देशीय दूतावासेन ज्ञापितम् वर्तते। एवमेव च पाकिस्तान देशेनापि नेपालस्य अन्तरिम सर्वकारस्य प्रधानमन्त्रिणी कार्किणः नियुक्तिं प्रति हार्दं वर्धापनं विज्ञापितं वर्तते। प्रधानमन्त्रिणा शहबाज शरीफ इत्यनेन शुभकामना सन्देशस्य माध्यमेन नेपाली जनतायाः शान्तेः प्रगतेश्च कामनां विधाय देशद्वयस्य सम्बन्धम् अतिरिक्तं प्रगाढीकर्तुं सहकार्याय तत्परता अस्तीति प्रतिबद्धता व्यक्तास्ति। राष्ट्रपतिः रामचन्द्र पौडेलः सविता भण्डारिणम् महान्यायाधिवक्तृपदे नियुक्तवान् अस्ति। राष्ट्रपतिना पौडेलेन प्रधानमन्त्रिणः सुशीला कार्किणः परामर्शेन नेपालस्य संविधानस्य अनुसारेण भण्डारी महान्यायाधिवक्तृपदे नियुक्ता अस्तीति राष्ट्रपतेः कार्यालयस्य प्रवक्ता प्रदीप कुमार कोइरालाभिदेन ह्यः प्रकाशितायां विज्ञप्तौ उल्लिखितमस्ति। भण्डारी वरिष्ठाधिवक्ता वर्तते। अत्रान्तरे राष्ट्रपतिना रामचन्द्र पौडेलेन महान्यायाधिवक्तुः रमेश बडालस्य त्यागपत्रं स्वीकृतमस्ति। महान्यायाधिवक्त्रा बडालेन अस्यैव भाद्रमासस्य चतुर्विंशात् दिवसात् क्रियान्वयनत्वेन महान्यायाधिवक्तृपदात् प्रदत्तं त्यागपत्रं स्वीकृतमस्तीति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा प्रदीप कुमार कोइरालाभिदेन प्रकाशितायां विज्ञप्तौ उल्लिखितमस्ति। अस्यैव भाद्रमासस्य त्रयोविंशे चतुर्विंशे च दिवसयोः जेन्जी यूनां समूहस्य प्रदर्शने उत्पन्नायाः परिस्थितेः कारणेन आराष्ट्रं विभिन्नेभ्यः कारागारेभ्यः पलायितेषु बन्दीजनेषु सप्तदशोत्तर त्रिसहस्राधिकाः बन्दिनः निगृहीताः सन्ति। नेपाल प्रहरिणः केन्द्रीय प्रवक्ता प्रहरी नायब महानिरीक्षकः विनोद घिमिरे एते बन्दिनः निगृह्य कारागारे आनीताः सन्ति इति चर्चयन् अधुनापि दशसहस्राणि शतत्रयं विंशति बन्दिनः पलायितः सन्तीत्यतः आवश्यक सावधानताम् अवलम्बितुं जनान् अनुरुद्धवान् वर्तते। अत्रान्तरे ललितपुरवर्तिनः नखु कारागारात् पलायितेषु बन्दीजनेषु षडुत्तर शतद्वयं बन्दिनः पुनः कारागारे एव प्रत्यावर्तिताः सन्ति। राष्ट्रिय स्वतन्त्र दलस्य सभापतिना रवि लामिछाने विधेन सहितः षडुत्तर शतद्वयं बन्दिनः प्रत्यावर्तिताः सन्ति इति कारागार प्रशासनेन ज्ञापितम् वर्तते। जेन्जी युव प्रदर्शनस्य क्रमे भरतपुर महानगरपालिकायामेव अब्जद्वयादपि अधिकानां रूप्यकाणां क्षतिः सम्भूता अस्ति इति आकलनं विहितं वर्तते। महानगरपालिकायाः प्रमुख प्रशासकीयाधिकृतस्य लक्ष्मीप्रसाद पौडेलस्य अनुसारेण क्षतेः विवरणस्य संकलनं विधीयमानम् अस्ति। प्रारम्भिकरूपेण अब्जद्वयस्य रूप्यकाणां क्षतिः सम्भूता अस्ति इति आकलनं विहितं वर्तते। ह्यस्तन दिवसात् जलवायोः परिवर्तनं भूत्वा स्थाने स्थाने भीषण वृष्टिः सम्भूता अस्ति इति समाचारः।